नमस्सर्वेभ्यः। अद्य विभक्तिवर्गस्य द्वितीयः पाठः, सेप्टेम्बर् मासस्य पञ्चमः दिनाङ्कः, मङ्गलेन कक्ष्यायाः आरम्भं कुर्मः। रामो राजमणिः सदा विजयते, रामं रमेशं भजे। रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः। रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहम्। रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो। गतवर्गे विभक्तेः किञ्चित् परिचयं प्राप्तवन्तः। संस्कृते पदं द्विविधं भवति, नामपदम् अथवा सुबन्तं, तथा क्रियापदम् अथवा तिङन्तम् इति द्वेधा पदानि भवन्ति। तत्र नामपदानां विषये लिङ्गं, विभक्तिः, वचनम् इत्येते अंशाः मुख्याः भवन्ति। लिङ्गं त्रिधा, पुल्लिङ्गं, स्त्रीलिङ्गं, नपुंसकलिङ्गम् इति। वचनं त्रिधा, एकवचनं, द्विवचनं, बहुवचनम् इति। तथा विभक्तिः सप्तधा, प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी। किं नाम विभक्तिः इत्यपि वयं दृष्टवन्तः। यत्र किमपि पदं भवति तत्र भागद्वयं, प्रकृतिः, प्रत्ययः। नामपदे अथवा सुबन्ते प्रकृतिः प्रातिपदिकम्, रामः इत्यत्र प्रातिपदिकं राम, सीता इत्यत्र प्रातिपदिकं सीता, फलम् इत्यत्र प्रातिपदिकं फल। एवं सर्वत्र नामपदेषु प्रकृतिः भवति प्रातिपदिकम्। तस्मात् प्रातिपदिकात् केचन प्रत्ययाः योज्यन्ते। ते प्रत्ययाः सुप् प्रत्ययाः इति कथ्यन्ते। सुप् प्रत्ययाः एव विभक्ति प्रत्ययाः। सो विभक्ति इस् नथिङ्ग् बट् द सेट् आफ् प्रत्ययास् विच् आर् एडेड् टु प्रातिपदिकास् टु कन्वे डिफरेण्ट् मीनिङ्ग्स्। सुप् प्रत्ययाः एकविंशतिः, 21। सप्त विभक्तयः, प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी इति सप्त विभक्तयः। प्रत्येकं विभक्तौ त्रीणि वचनानि, एकवचनं, द्विवचनं, बहुवचनम्। एवं सप्त विभक्तिषु त्रयः प्रत्ययाः आहत्य एकविंशतिः। सो अ टोटल् आफ् 21 प्रत्ययास् आर् काल्ड् द विभक्ति प्रत्ययास्। किमर्थं विभक्तिः भवति, किं प्रयोजनं विभक्तेः इति चेत्, विभक्तिः भिन्नान् अर्थान् गमयति। सो विभक्तीस् कन्वे डिफरेण्ट् मीनिङ्ग्स्। सो एज़् वी सॉ इन् द लास्ट् क्लास्, वस्तुनिर्देशः कस्यचित् वस्तोः वस्तुनः निर्देशार्थं, बालः, अश्वः, पुरुषः, महिला, पुस्तकम्, एवं प्रातिपदिक अर्थनिर्देशार्थं विभक्तिः भवति। क्रियया सह सम्बन्धं वक्तुं, सो टु इण्डिकेट् द रिलेशन्शिप् आफ् द पदार्थ वित् एक्शन्। अन्येन पदेन सम्बन्धं वक्तुं, टु इण्डिकेट् the relation to a particular word or anyena padarthena sambandham vaktum, or to indicate its relation with a different padartha. So these are the common things which are achieved by adding vibhakti. Asmin varge prathama vibhaktehe vishaye kinchit pashyamaha. If you have any questions, you can ask. There are a couple of things asked. Where is the first class presentation located for us to review? All materials related to the first class are available at www.sanskritfromhome.in. Please, if you have not done so already, please register yourself in the portal. Under the Vibhakti course, you will be able to see all materials, the presentation, the video, the audio recording, and everything related to this course will be available there. And if anybody is unable to hear or unable to see the screen at any time, so this is a general instruction, there may be some cases where you lose the audio or this. So there are two possibilities. Either is a problem at my end that because of connectivity issues, I might lose audio sometimes. If that is the case, if you wait for a few minutes, you'll either get a message from the backup organizer or I'll reconnect. But if it is only at your end, what you can do is to log out and log in again. That usually resolves most of the problems with GoToWebinar. You just have to log out and re-log in, and that will usually resolve the problem. इदानीम् आरम्भं कुर्मः प्रथमा विभक्तिः. वस्तुतः गतवर्गे अपि प्रथमाविभक्तेः किञ्चिदभ्यासः कृतः लिङ्गानां वचनानां च. पुनः केषु केषु अर्थेषु प्रथमाविभक्तेः प्रयोगः भवति इति पश्यामः. प्रथमा इस् द मोस्ट् इम्पार्टेण्ट् विभक्ति. इन् दट् आल्मोस्ट् आल् सेण्टेन्सेस् विल् डेफिनेट्लि हेव् वन् इन् प्रथमाविभक्ति. There is almost no sentence which does not have something in Prathama Vibhakti. Okay, so it is a sort of compulsory Vibhakti for a sentence in Sanskrit. Adau kanichana udaharanani pashyamaha. Prathama Vibhakti hi bhinneshu artheshu bhavati. Prathamaha prayogaha etadvishaha. Saha balaha. सः बालः. एषः हरिणः. एषः हरिणः. सा महिला. सा महिला. एषा बालिका. एषा बालिका. तत् तत् फलम्. एतत् एतत् पुष्पम्. वस्तुनिर्देशे प्रथमा विभक्तिः. दिस् इस् वन् आफ् द कामन् मोस्ट् कामन् यूसेजेस् आफ् प्रथमा विभक्ति. वस्तुनिर्देशः इत्युक्ते इण्डिकेट् अ पर्टिक्युलर् आब्जेक्ट् आर् a person, we use Prathama Vibhakti. And this is also one of the simplest sentences in Sanskrit. Yatra, there is a sarvanama, a pronoun and a noun. Saha balaha. Eshaha harina. So they have two words. Remember, generally in these sentences, there is always the presence of a kriyapada called asti, is. So if we are saying that in English, he is a boy. Sa asti kriya sarvatra adhyahriyate. Everywhere we assume the presence of asti or santi. Okay? But assuming that the simplest sentence in Sanskrit consists of these two words, one noun and a pronoun which indicates the noun. Hopefully, as I said last, I'm assuming you are all familiar with these basic concepts of sarvanamas, of namapadas, and of kriyapadas. So we will just do a quick practice to ensure that you are aware of this. Tatra sarvaihi jnayate iti matva api punaha vadami saha sa tat iti durastha shabdanam nirdeshe upayujyamanani padani. So hope you know. So tat phalam, sa mahila, saha balah, ataha yaha vadati, the speaker, tasmat dure sthitasya padarthasya nirdeshartham tat shabdah prayujyate, saha sa tat. Vaktuhu samipe sthitasya padasya nirdeshartham etat shabdah prayujyate, eshaha harinah, esha balika, etat pushpam, saha sa tat, eshaha esha etat. So idanim etesham kinchit abhyasam kurmaha, the simplest sentences in Sanskrita. So as I said, this week also we will do with some of the basic concepts so that you are much more familiar with these. So then as we move on to the different vibhaktis, we will take the different contexts. Okay. So these are again things which I am assuming you are familiar, so I am not going into much explanation. Prashna santiva, Surendra Mahodaya?
No, kinchadapi prashna asti. Sorry, wrong.
No problem. So, okay. Idanim ekah abhyasah. People who would like to participate, please raise your hands. For those who did not attend last class, so eshah vargah prayena abhyasam anusrutyeva bhavati. The most important part of these classes will be practice or you participating. So to participate, please press the hand symbol. So in your if you're accessing it through a laptop, in the right side, the GoToWebinar screen, there is a symbol of a hand with an upward arrow. So if you press that once, the hand symbol appears next to your name. So that means you either have a question or you are volunteering for the exercise. So once you do that, I will unmute you. I repeat, all attendees are muted at the beginning because otherwise it would lead to a lot of noise. I will unmute you if you raise your hand, either if you have a question or if you want to volunteer for the exercises. If you have a question, you can also use the questions tab to type in your question. I can see your question and respond to it. So I encourage all of you to kindly participate. I know, I mean, there is a limitation on my side that I might not be able to accommodate all of you at all times, but still, in your interest, it is better that you always volunteer so that you get more and more practice. Idanim abhyasam kurmaha. Ekayana vakyena ayam padarthaha nirdeshtavyaha. Udayashreyas Mahodaya. You just have to say, Esha, what is this? Etat kim?
Esha balakaha.
Balakaha, athava shishuhu. Saha shishuhu. Because it is far away. Saha shishuhu.
Saha shishuhu.
Tat
patram.
Tat na, because it is closer.
Etat patram.
Etat patram. Dure sthitasya tat. Samite sthitasya etat. Etat patram.
Esha tula.
Esha tula. Samyak. Thank you. So each of you will get 3 questions. So next. Harmandar Singh.
Yes. Or sahara.
Sa mala. Or sahara. Paradvayam asti. Sahara or sa mala.
Sah vyagra.
Saha vyagra.
Vyagra. Esha churika.
Esha churika. Samyak. Shanti Kasi Rajan. Shanti Kasi Rajan. Punaha Samyak Nashu. There is a lot of noise. I'm not able to hear you clearly. Esha? I think you've muted yourself again. Please click on the microphone to unmute. Huh. Just once. One click will do.
Hello?
Sorry, etat kim? Please repeat. I could hear the sound, but I couldn't make out what you said. Okay, maybe we'll try with somebody else. Shubha Shriram.
Esha Droni.
Esha Droni.
Eshaha
Arakshakaha.
Sa Dvara.
Sa Tara. Or Tat Nakshatram. Guru.
Namaskar. Tat Markataha.
Saha Markataha.
Najarani
Bidalaha.
Bidaraha.
Eshaha Bidalaha. Athava Eshaha Marjaraha.
Tat Kupi.
Kupi.
Sa Kupi.
Sa Kupi. Samyak. Next. Geeta Ramachandran. I think you have muted yourself. Adatu.
Sa, I don't know the word for the old lady.
Vriddha.
Vriddha, okay. Sa Vriddha.
Sa
Vriddha. Eshaha Sarpaha.
Eshaha Sarpaha. Sorry, I think I missed it.
Tat. I don't know the word for...
Mapika.
Mapika. Okay, tat mapika.
No. Mapika.
Mapika. Sa mapika.
Sa mapika. Atra ekah prashnah asti. Tatra kupi shabdah napumsakalingam kila iti. Na kupi iti shabdah strilinga shabdah. Ataha sa kupi. Sa mapika. Remember, I have told you last time, linga depends on the word and not on the object itself. The object might be inanimate, but the word is can be strilinga or pullinga or napumsakalinga. Okay. So next, Paul.
Lekhani.
Esha Ankani. Lekhani is
Ankani,
great, but we use Ankani for pencil. Esha Ankani.
Right. Sa Lekhani.
Sa Lekhani.
Esha Balika.
Balika. Esha
Balika.
Samyak.
Esha Balika.
Ha. Thank you. So those who did not get a chance in this exercise, don't worry. I will as much as possible, you will get a chance for the next exercises. There are quite a few. So don't worry. Idanim Prathama Vibhaktehe. Prayogaha drishtaha vastu nirdeshartham prathama vibhakti yatra kasyachit padarthasya nirdeshartham prathama vibhakti upayujyate prathama vibhaktau rupani katham bhavanti asmabhihi purvamapi drishtani balaha balau balah balika balike balikah Lekhani, lekhanyau, lekhanyah. Phalam, phale, phalani. So these are the forms of the four common types of words that we will see in this course. So balah, balau, balah. Balika, balike, balikah. Lekhani, lekhanyau. Lekhanyah phalam phale phalani etani namapadanam prathama vibhaktau rupani sarvanamnam rupani saha tau te sa te tah tat te Tani Dure Sthitasya Vastunaha Nirdeshartham Saha Tau Te Sa Te Taha Tat Te Tani Samipe Sthitasya Nirdeshartham Eshaha Etau Ete Esha Ete Etaha Etat Ete etani Eshaha etau ete Esha ete etaha Etat ete etani Idanim tachabdasya abhyasaha So you will get a few sentences with a blank You have to fill the blank with the correct form of tat. So tat, I mean saha, sa, tat or their forms. So taihi shabdaihi riktam sthalam puraniyam. Udaharanartham dash phalam. Tat phalam. Phalam iti napumsakalingam ekavachanam. Ataha tat phalam. Jnanaprasuna Naresh. Na shruyate adati va I cannot hear you please check if your microphone is working So we'll come back to you. Krishna Mahodaya.
Te Balaha.
Te Balaha.
Balaha.
Ha.
सा बालिका
सा बालिका
ते नयने
तौ पुरुषौ
तानि वस्त्राणि
तानि वस्त्राणि धन्यवादः नेक्स्ट वृक्षः
सः वृक्षः
सः वृक्षः
ते महिले
ते महिले
ते ताः मालाः
ताः मालाः
मालाः सा नौका
सा नौका
नौका ते ते पुस्तके
ते पुस्तके
ते पुस्तके पुस्तके ताः शिलाः
ताः शिलाः सम्यक्
शिलाः
यस् नेक्स्ट् मलकोण्डय्य महोदय
हरि ओम् सुप्रभात महोदय
वदतु
तौ पर्वतौ
तौ पर्वतौ
सः अश्वः
सः अश्वः
तत् कुसुमम्
तत् कुसुमम्
सः गजाः
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 सर्वनाम किं भवति
सर्वनाम स्त्रीलिङ्ग गजः गजाः गजः ते गजाः
ते गजाः
गजाः सा शिला
सा शिला
नेत्राणि तानि नेत्राणि
तानि नेत्राणि
नेत्राणि
सम्यक् इदानीम् एतत् शब्दस्य प्रयोगः उषा महोदय
एषः दण्डः
एषः दण्डः एते आसने
एतानि फलकानि
एतानि फलकानि
एतौ शिक्षकौ
एतौ शिक्षकौ
एषः छात्रः
एषः छात्रः
एतत् पुष्पम्
एतत् पुष्पम् सुप्रीता भट्ट आई थिंक यू म्यूटेड योरसेल्फ जस्ट क्लिक ऑन द माइक्रोफोन वंस टू अनम्यूट योरसेल्फ
एते छात्रे
एते छात्रे
एषा उमा
एषा उमा
एताः मृत्तिकाः
एताः मृत्तिकाः
एते पत्रे
एते पत्रे
एतानि आभरणानि
एतानि आभरणानि
एतौ हंसौ
एतौ हंसौ सम्यक् राजीव महोदय
हरि ओम
हा वदतु
एषः शुकः
एषः शुकः
एतत् कमलम्
एतत् कमलम्
एते हस्ताः
एते हस्ताः
एषा राधा
एषा राधा
ये एताः कन्याः
एताः कन्याः
एते पुस्तके
एते पुस्तके सम्यक् तत् शब्दस्य तथा एतत् शब्दस्य प्रयोगः सो द वेरी इम्पोर्टेंट थिंग टू रिमेम्बर इज टू यूज द करेक्ट जेंडर एंड नंबर अकॉर्डिंग टू द नाउन ओके सो नेक्स्ट इदानीं पूर्णवाक्यस्य रचना पूर्वं नामपदं दत्तमासीत् तदनुगुणं सर्वनामपदस्य योजनं दृष्टम् इदानीं वाक्यं रचनीयम् संदीप महोदय
Actually, I cannot see the video.
You cannot see the screen at all?
I am seeing a different screen. Shala, Hagaja, that screen. I don't see the current screen.
Is it?
Yeah.
Surprising. Maybe... at least in my audience view, it shows this. Maybe sometimes because of the internet connection, it takes some time to change. For the, this, maybe you can just log out and quickly log in again. So sometimes that aids sharing the thing. You can then answer later.
Okay.
Yeah. It's Naresh Mahodaya. You can type in if you are not able to say. Can you speak? I mean, I don't know if I can hear you. Hello?
Hello?
Hello? Yeah, I could hear you. I mean, saying no now, but I mean, I guess that's you. Can you speak again?
Hello?
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 Yes, I can hear you. Jnana Prasuna. Yes, please.
Okay, tell me.
Ha.
Okay. Tat, okay. Sa Kadali.
Ha. Esha Kadali. Samipe sthitasya etat shabdaha. Esha Kadali athava etat Kadali phalam.
Etat Kadali phalam.
Alukam dvayam.
Alukam. आलुकं तत् ते आलुकम् आलुके
ते आलुके सम्यक् ते आलुके
तानि वस्त्राणि
तानि वस्त्राणि तानि वस्त्राणि सम्यक् वरदराजन् महोदय
एषा सुके
शुकः द्विवचने
एते एते शुके
एतौ शुकौ
एतौ शुकौ
एतौ शुकौ एते सॉरी
एते मेघाः
सा नदी सम्यक् श्यामला श्यामला लक्ष्मण न श्रूयते.
हरि ओम.
वदतु.
कूप्यः शाकेताः ताः कूप्याः
ताः कूप्यः
कूप्यः बालिका सा बालिका
सा बालिका अथवा सा छात्रा
छात्रा नीडल
सूची
सूची एशौ
सूची
एषा एषे
एते
एते एतौ सूच्यौ
एते सूच्यौ एते एषा एते एषा सूची एते सूच्यौ
सूच्यौ.
सम्यक्. सो नेक्स्ट बालचंद्रन.
घंटा घंटे घंटा घंटा
घंटा
मेरे नाम से वेजिटेबल राइट ऑन संस्कृत
वृंताकम
वृंदाकम वृंदाकम मीटर एतौ वृंदाकौ
एते वृंताके वृंदाके एते वृंताके
एते वृंदाके सुष्ट्रह सह उष्ट्रह
सह उष्ट्रह
उष्ट्रह
शुभा श्रीराम शुभा हेलो अन्ये केपि वक्तुम् इच्छन्ति एतावता न उक्तवन्तः पीपल हू हैव नॉट आंसर्ड सो फार वुड यू हरीश महोदय एताः घट्यः
सालाधिका
द्वयम् अस्ति
द्वयमेव
ते नासिके
एते कुञ्चिके
एते कुञ्चिके सम्यक् सो अदर्स् वुड् लैक् टु आन्सर् सो हा सारि हा सुब्रह्मण्यं महोदय हरि ओम्
हरि ओम् श्रूयते वा
हा श्रूयते वदतु
तत् आम्रफलम्
तत् आम्रफलम् हा
लेखन्यौ ते लेखन्यौ
ते लेखन्यौ रथः
रथाः एते रथाः
एते रथाः सम्यक् नेक्स्ट ड्रोन हरेग्नि
सा पेटिकाः
हाँ, दिस इज रबर मार्जिनी एषा
मार्जिनी
हाँ, एषा मार्जिनी एतत् पत्रं त्रयम् अस्ति अतः
एतानि पत्राणि
नौका
ताः नौकाः
ताः नौकाः सम्यक् रामप्रिया हरिकृष्णन् न श्रूयते ऐ केनाट् हियर् यू सुरेन्द्र महोदय तौ कुक्कुरौ तौ शुनकौ या शुनकौ इधर वे
पर्वताः ते पर्वताः
ते पर्वताः
ब्रांच इज कॉल्ड
शाखा
एषा शाखा
एषा शाखा सम्यक् नेक्स्ट देन् सतीश राव
Yes, I'm here. Esha Gajaraja.
Eshaha Gajaha.
Eshaha Gajaha.
Oh, I think, sorry, that is only one left. You'll get a chance again in the next one.
Okay. Sure.
So now we have seen the first case of Prathama Vibhakti used for indicating different objects and the use of pronouns with Prathama Vibhakti or in Prathama Vibhakti, the use of the construction of a sentence with a pronoun and a noun in Prathama Vibhakti. Yam Vastanirdeshartham Prathama Vibhaktihi Prayukta. Tahparam Prathama Vibhaktehe Dvitiyam Prayogam Pashyamaha Balaha Pathati. बालः पठति शुनकाः भषन्ति शुनकाः भषन्ति सा लिखति फलानि पतन्ति ते पिबतः ते पिबतः मयूरौ नृत्यतः मयूरौ नृत्यतः अत्र सर्वत्र बालः शुनकाः सा फलानि ते मयूरौ एतानि सर्वाणि पदानि प्रथमा विभक्तौ सन्ति एते प्रयोगाः कर्तुः प्रथमा विभक्तिः द यूसेज ऑफ प्रथमा विभक्ति टू इंडिकेट द कर्ता द पर्सन हू डस द एक्शन बालः पठति द बॉय रीड्स शुनकाः भषन्ति डॉग्स बार्क सा लिखति शी राइट्स फलानि पतन्ति फ्रूट्स फॉल ते पिबतः दे बोत ड्रिंक मयूरौ नृत्यतः पीकॉक्स टू पीकॉक्स डांस सर्वत्र कर्तुः निर्देशार्थं प्रथमा विभक्तिः उपयुज्यते क्रियया क्रियापदेन सह सो यू हैव अ वर्ड इन प्रथमा विभक्ति एंड अ क्रियापद सो दिस इज द सेकेंड काइंड ऑफ सेंटेंस विथ अ प्रोनाउन विथ अ नाउन और अ प्रोनाउन एंड अ वर्ब सो द नाउन इज इन प्रथमा विभक्ति व्हेन इट इज द कर्ता द डूअर ऑफ एक्शन सो अत्र क्रियापदानां रूपाणि पुनः सर्वे जानन्ति इति मत्वा केवलं संक्षेपेण उच्यते सो आई एम अज्यूमिंग यू आर ऑल फेमिलियर विथ दिस पार्ट सो पठति पठतः पठन्ति सो टू रीड सः पठति सा पठति और तत् पठति क्रियापदे लिंगभेदः नास्ति सो इन तिङन्तस् यू डू नॉट हैव अ डिफरेंस ऑफ जेंडर सो फॉर ऑल जेंडर्स इट इज द सेम सो तौ पठतः ते पठतः ते पठन्ति ताः पठन्ति तानि पठन्ति सर्वत्र पठति पठतः पठन्ति इति प्रथम पुरुषः टू इंडिकेट अ कर्ता विच इज नीदर यू नॉर मी सो अदर देन यू एंड मी इफ यू यूज एनीथिंग एल्स इन द सेंटेंस अदर देन द युष्मद् त्वं युवाम यूयम और अहम आवाम वयम सो एनी अदर कर्ता विल ऑलवेज गेट प्रथमा विभक्ति अन्यस्य सर्वस्यापि कर्तृपदस्य प्रथमा क्षम्यतां प्रथम पुरुषः एव भवति त्वं पठसि युवां पठतः यूयं पठथ त्वं युवां यूयम् सो यू टु इंडिकेट यू इन एकवचन द्विवचन बहुवचन युष्मत् इज द प्रातिपदिकम् युष्मद् इति प्रातिपदिकम् प्रथमा विभक्तौ त्वं युवां यूयम् इति रूपाणि युष्मद् शब्दस्य प्रयोगे मध्यम पुरुषः पठसि पठथः पठथ अहम् पठामि आवाम पठावः वयम् पठामः सो अस्मद् इति प्रातिपदिकम् अहम् आवाम वयम् इति प्रथमा विभक्तौ रूपाणि अस्मत् शब्दस्य प्रयोगे उत्तम पुरुषः पठामि पठावः पठामः Again, I'm assuming this is revision, that you are all familiar with these. If you are not, please, in the week's time that you have, please go through any of the existing resources to understand these basic concepts of pronouns and actions, Kriyapada. As I said, we have a product called Samskrita Bala Modini, which is available as a CD and also as free apps. On Android and iOS. So you can use those to get to practice using these. So, idani atra अपरः अभ्यासः ततः पूर्वं प्रश्नः अस्ति वा रघुनाथ महोदय you have a question
when you are reading that Sanskrit no simultaneously read it in English also so we understand much but immediately we understand after completing the entire thing you are reading the first one instead along with that if you say it in Sanskrit and English I will grasp it immediately
yes but my point in this class is also that you should gain fluency with Sanskrit or in understanding Sanskrit The reason I give English is that, yes, I do understand that it might be difficult at the initial stages to, you know, understand Sanskrit quickly. But that is also the point of this class. Samskritasya Shravana Samskaraha. You have to listen. It's only when you practice or when you're used to listening more and more and speaking more and more that you get comfortable with any language. So, I am making a conscious effort to keep Sanskrit to the maximum in the class. I will use English because, yes, I mean, I do not want it to not reach anybody or not want people to go away just because, okay, it seems difficult initially. But because you just listen to Sanskrit carefully, it is not difficult to understand because I will try to keep the Sanskrit as simple and as slow as possible. Ataha Samskritam Shrinvantu. Samskritam avagachantu. So it's only when you keep hearing that the words will also come out easily and naturally rather than you know, having to think. So it's a conscious thing. I will give the English things later, but yes. So I hope you are all fine with it. It will help you in the long run. Trust me. Even though it may seem difficult initially, it will help in the long run. I have been doing, classes, even grammar, higher Vyakarana texts since quite some years. So even those can be done mostly in Sanskrit. That even though initially people find it difficult to understand, as you go on, it becomes more easier. And your language will also improve proportionately. Okay. Idanim, asmin abhyase, pibati. Iti dhatum sarve jananti, pibati, to drink, pibati, pibataha, pibanti, pibasi, pibathaha, pibatha, pibami, pibavaha, pibamaha. Idani, namapadamba sarvanama vadrashtva, tadanugunam, pibati ityasya rupam vaktavyam. So you have to give the correct form of pibati. Say saha, saha, pibati. So, what is it for the rest? Okay. So, I unmuted somebody. Rao Mohore. Taha Pibanti.
Yes. Aham Pibami.
Aham pibami.
Tvam pibasi.
Tvam pibasi.
Yuyam pibatha.
Yuyam pibatha.
Vayam pibamaha.
Vayam pibamaha. Hari Krishna Mahodaya. You have to unmute yourself. Just click on the microphone once to unmute. There is a microphone symbol next to your name. So if you click on that once, you can unmute yourself now. Hare Krishna Mahalaya. Sa. Hello. you speaking? Ha, valad. Sa?
Pibati.
Ha, sa pibati.
Sa pibati. Kani pibanti.
Kani pibanti.
Pibanti. Te pibataha.
Te pibataha. If we are using te in strilinga or napumsakalinga, te pibataha. Pullingetu te pibanti. Sahatau te, ataha te pibanti. So all of them are correct depending on the context.
Avam pibavaha.
Avam pibavaha. Tau.
Tau pibataha.
Tau pibataha.
Yuvam pibataha.
Yuvam pibataha. Pibasi pibataha. Samyak. Idanim khadati ityasya prayogaha karaniyaha. Sudhir mahodaya.
Saha khadati.
Saha khadati.
Taha khadanti.
Taha khadanti.
Aham khadami. Tvam khadasi. Yuyam khadatha. Vayam khadamaha.
Vayam khadamaha. Samyak. So next we have Radhika.
Sa khadati. Tani khadanti.
Te khadatah aur te khadanti. Haan.
Avam khadavah. Tau khaditah.
Khadatah.
Ta khadatah. Yuvam khadatah.
Khadatah. Yuvam khadatah. Tishthati ityasya prayogaha. Suprita.
Saha tishthati.
Saha tishthati.
Taha tishtanti. Aham tishtami. Svam tishtati. Yuyam tishtataha.
Yuyam
tishtataha.
Tishtatha. Yuyam tishtatha.
Yuyam tishtatha. Vaya tishtamaha. Sa tishtati. Sa tishtani.
Sorry. For others. Thank you. Next. Ramapriya. Nashruyate. Jai Khanna.
Sa tishtate. Tani tishtante.
Hmm.
te tishtanti.
Te tishtanti. Athava te tishtata.
I avam tishtata.
Avam.
Tishtau.
Tishtami tishtavaha. Avam tishtavaha.
Avam tishtava. Tau tishtataha.
Tau tishtataha.
Tishtataha. Yuvam tishtataha.
Yuvam tishtataha. Okay.
Yuvam tishtataha.
Coming. So, kriyapadasya prayogaha krataha. Idanim, we have to add the proper pronoun part. Noun or pronoun part for it. So, you can use the forms of, say, saha. Okay, tat shabdasya prayogaha. Usha. Okay. Usha.
Balika gayati.
Balika gayati.
Vayam nrityamaha.
Vayam nrityamaha.
Tvam khadasi.
Tvam khadasi.
Balau patatah.
Balau patatah.
Aham vadami.
Aham vadami.
Rakshakaha rakshanti.
Rakshakaha rakshanti. Paul.
Tau smarataha.
Yuvam smarataha. Madhyama purushaha. Smarataha.
Smarataha. Avam pibavaha.
Avam pibavaha.
Taha chalatha.
Chalatha. As soon as you have that second tha, it is always Madhyama Purusha.
Madhyama Purusha, of course. Yeah, I was thinking that, but yeah, but I messed it up. Okay. So Madhyama Purusha, then it's going to be Yuvam chalatha.
Yuyam chalatha.
And let's see. Tvam likhasi.
Tvam likhasi.
Vayam kridamaha.
Vayam kridamaha.
Yuyam hasatha.
Yuyam hasatha. Right. Harini. Harini. Yes, you can type if you prefer that. But, oh yes. Maybe I should, yeah. Te pashyanti. Right, te pashyanti. Saha tarati. Saha tarati. Aham ganayami. Aham ganayami. Yuvam dashathaha. Yuvam dashathaha. Tau pachataha. Tau pachataha. Avam tishthavah. Avam tishthavah. So I hope etesham kriyapadanam arthah jnayate. Gayati sing nrityamah. Dance khadasi. Eat pathatah. Read vadami. Say or tell rakshanti. Protect smarathah. Remember pibavah, drink, chalath, move, likhasi, write, kridamah, play, hasath, laugh, pashyanti, see, tarati, to swim or to cross, ganayami, count, dashathah, bite, pachatah, cook, tishthavah, stand. So these are all common kriyapadas. So the last exercise for the day is to correct the errors. The most common errors that happen when people are using Sanskrit is the usage of wrong kriyapada. That is either the wrong purusha or the wrong vachana for the kriyapada with respect to what they want to say. Okay, as I said, that is the most common error that we find when we use the language. Everybody makes that. So let us see what is the wrong in that and just correct it. Okay. Malakondaya.
Yes, madam. Saha patati.
Saha patati.
Saha patati.
Vayam
kridamah.
Vayam kridamah.
Kridamah. Taha pasyanti.
Taha pasyanti.
Pasyanti.
Yes. The next. Dhanya Srinivasan.
Yes.
Ha. Tvam chalami.
Tvam. Tvam chalasi.
Tvam chalasi.
Aham nrityami.
Aham nrityami.
Sa tadayati.
Sa tadayati. Okay. Thank you.
Thank you.
Harish.
Yuyam chorayatha.
Yuyam chorayatha.
Tau patataha.
Tau patataha.
Aham bhashami.
Aham bhashami. Tat bhashati.
Vayam upavishamaha.
Vayam upavishamaha. Yes. So as you can see, you can either change the sarvanama or you can change the kriyapada for correcting all these errors. So I was looking at it, good that somebody came up with it. Then next you have Jnana Prasuna.
Namaskara, madam.
Saha likhami.
Saha likhati.
Saha likhati or?
Or aham likhami.
Aham likhami.
Vayam. Vayam vadamaha.
Vayam vadamaha.
Or tau patataha.
Tau vadataha.
Tau vadataha.
Next, Krishna.
Tvam gacchasi, athava saha gayati.
Tvam gayasi or saha gayati.
Aham pibami, athava sa pibati.
Aham pibami, saha pibati. Samyak. Venkateshan. Natarajan, I am unable to unmute you. I don't know why. Sudhir?
Asmarati. Va tvam smarasi. Va. Yuyam chorayatsa. Va te chorayanti va.
Yuyam chorayatha athava te chorayanti. Okay. Next. Rao Mahodaya. Hello, Nashuyate. Tau Vasanti. I think you have muted yourself. You should click on the Nashuyate.
Hello, Devasan.
Ramapriya.
Sahatau.
Tau
vasataha. Devasanti.
Tau vasataha athava te vasanti.
Devasanti. Devasanti.
Next one. Tat gacchati.
Tat gacchati. Tat gacchati. Te gacchanti.
Te gacchanti or tani gacchanti. Samyak. So we will stop for this day. So this exercise of using the correct kriyapada is the most important in getting the language correct. Okay. So that is why we spent quite some time on this. Agrima Varge Api, Puraha Prathama Vibhaktehe, Aparaha Ekaha Prayogahasti, Tat Pashyamaha, Punascha Sambodhana Sambodhana Prathama Vibhaktehe Prayogam Pashyamaha. Idani, Yathamaya Uktam, Vibhakti Rupanam Jnanartham. The easiest way is to have regular practice of the forms. Just reading the forms daily once. Please spend 10 minutes daily in going through the forms, just repeating it. So then you will be able to recall it easily and use it when required. Okay. So, I'll read it, so please read along with me, or you can listen and then you can practice during the week. Akarantaha pullingaha rama shabdaha ramaha ramau ramaha హే రామ హే రామౌ హే రామాః రామం రామౌ రామాన్ రామేణ రామాభ్యాం రామైః రామాయ రామాభ్యాం రామేభ్యః రామాత్ రామాభ్యాం రామేభ్యః రామస్య రామయోః రామాణాం రామే రామయోః రామేషు ఆకారాంతః స్త్రీలింగః రమా శబ్దః రమా రమే రమాః హే రమే హే రమాః రమాం రమే రమాః రమయా రమాభ్యాం రమాభిః రమాయై రమాభ్యాం రమాభ్యః రమాయాః రమయోః రమాణాం రమాయాం రమయోః రమాసు ఈకారాంతః స్త్రీలింగః నదీ శబ్దః నదీ నద్యౌ నద్యః హే నది హే నద్యౌ హే నద్యః నదీం నద్యౌ నదీః నద్యా నదీభ్యాం నదీభిః నద్యై నదీభ్యాం నదీభ్యః నద్యాః నదీభ్యాం నదీభ్యః నద్యాః నద్యోః నదీనాం నద్యాం నద్యోః నదీషు అకారాంతః నపుంసకలింగః ఫల శబ్దః ఫలం ఫలే ఫలాని హే ఫల హే ఫలే హే ఫలాని ఫలం ఫలే ఫలాని ఫలేన ఫలాభ్యాం ఫలైః ఫలాయ ఫలాభ్యాం ఫలేభ్యః ఫలాత్ ఫలాభ్యాం ఫలేభ్యః ఫలస్య ఫలయోః ఫలానాం ఫలే ఫలయోః ఫలేషు దకారాంతః పుల్లింగః తద్ శబ్దః సః తౌ తే తం తౌ తాన్ తేన తాభ్యాం తైః తస్మై తాభ్యాం తేభ్యః తస్మాత్ తాభ్యాం తేభ్యః తస్య తయోః తేషాం తస్మిన్ తయోః తేషు దకారాంతః స్త్రీలింగః తద్ శబ్దః సా తే తాః తాం తే తాః తయా తాభ్యాం తాభిః తస్యై తాభ్యాం తాభ్యః తస్యాః తాభ్యాం తాభ్యః తస్యాః తయోః తాసాం తస్యాం తయోః తాసు దకారాంతః నపుంసకలింగః తద్ శబ్దః తత్ తే తాని తత్ తే తాని తేన తాభ్యాం తైః తస్మై తాభ్యాం తేభ్యః తస్మాత్ తాభ్యాం తేభ్యః తస్య తయోః తేషాం తస్మిన్ తయోః తేషు సో వి విల్ స్కిప్ ఏతత్ ఫర్ దిస్ క్లాస్ సో దకారాంతః త్రిషు లింగేషు సమానః యుష్మద్ శబ్దః త్వం యువాం యూయం త్వాం త్వా యువాం వాం యుష్మాన్ వః త్వయా యువాభ్యాం యుష్మాభిః తుభ్యన్ తే యువాభ్యాం వాం యుష్మభ్యం వః త్వత్ యువాభ్యాం యుష్మత్ తవ తే యువయోః వాం యుష్మాకం వః త్వయి యువయోః యుష్మాసు రిమెంబర్ దేర్ ఆర్ టూ ఫార్మ్స్ ఇన్ సర్టన్ కేసెస్ ఈవెన్ దో ఇట్ ఇస్ ద ఫస్ట్ ఫార్మ్ విచ్ ఇస్ mostly used by us, it is always a good practice to know the second form also, because in literature when we all progress to reading the kavyas or the other pieces of literature, we will definitely come across the second form also in particular cases. So when we are doing the ratana, it is always good to know the whole thing rather than fixing with one and then not knowing that there is a second form. There is also one more question on why it is called Dakaranta. So the Anta specifies the last letter of the Pratipadika always. So Tad is Dakaranta. So Yushmad, the last letter is D, so it is Dakaranta. So the ending of the word is important for the forms. So when we move on to learning the forms, we see that it depends on the last letter. Okay. So Dakarantaha Trishu Lingeshu Samanaha Asmad Shabdaha Aham Avam Vayam Mam Ma Avam Nau Asman Naha Maya Avabhyam Asmabhihi Mahyam Me Avabhyam Nau Asmabhyam Naha Mat Avabhyam Asmat Mama Me Avayoh Nau Asmakam Naha Mayi Avayoh Asmasu Makarantaha Punlingaha Kim Shabdaha Kim Makaranta Kaha Kau Ke Kam Kau Kan Kena Kabhyam Kaihi Kasmai Kabhyam Kebhyaha Kasmat Kabhyam Kebhyaha Kasya Kayoh Kesham Kasmin Kayoh Keshu Makarantaha Strilingaha Kim Shabdaha Ka Ke Kaha Kam Ke Kaha Kaya Kabhyam Kabhihi Kasyai Kabhyam Kabhyaha Kasyaha Kabhyam Kabhyaha Kasyaha Kayoh Kasam Kasyam Kayoh Kasu Makarantaha Napumsakalingaha Kim Shabdaha Kim Ke Kani Kim Ke Kani Kena Kabhyam Kaihi Kasmai Kabhyam Kebhyaha Kasmat Kabhyam Kebhyaha Kasya Kayoh Kesham Kasmin Kayoh Keshu Takarantaha Punlingaha Bhavat Shabdaha Bhavan Bhavantau Bhavantaha He Bhavan He Bhavantau He Bhavantaha Bhavantam Bhavantau Bhavataha Bhavata Bhavadbhyam Bhavadbhihi Bhavate Bhavadbhyam Bhavadbhyaha Bhavataha Bhavadbhyam Bhavadbhyaha Bhavataha Bhavatoho Bhavatam Bhavati Bhavatoho Bhavatsu Ikarantaha Strilingaha Bhavati Shabdaha Bhavati Bhavatyau Bhavatyaha He Bhavati He Bhavatyau He Bhavatyaha Bhavatim Bhavatyau Bhavatihi Bhavatya Bhavatibhyam Bhavatibhihi Bhavatyai Bhavatibhyam Bhavatibhyaha Bhavatyaha Bhavatibhyam Bhavatibhyaha Bhavatyaha Bhavatyoh Bhavatinam Bhavatyam Bhavatyoh Bhavatishu. So this is the minimum set of words that you should know to be able to, you know, use Sanskrit in a simple way at least. Okay. So there are other words, lots more, but the basic set, if you know, you will be able to use quite a lot of words. A lot of vocabulary of Sanskrit is covered within these. Okay. So as I said, the materials, the notes and recordings of this class will be posted in www.sanskritfromhome.in by Wednesday. Okay. We need 2 or 3 days to process the recordings and post them. So you can check by Wednesday. So I'll also post a few additional exercises which you can try out at home with what we did today. So Agrima Varge, Prathama Vibhaktehe, Anya Prayogan, Tatha Sambodhana Prathama Vibhaktehe, Prayogamsha, Pashyama. Any questions? Malakondaya Mahalaya, Prashna Hatsu.
What is the meaning of Muktikaha?
Mrittikaha.
Today's lesson it came.
Mrittika is mud. So Mrittikaha.
Mud.
Yeah, mud or yeah.
It is muktika.
Mrittika is mud. It can be used in both ekavachana and bahuvachana. I mean, even though in English we use only mud, it can be used in bahuvachana in Sanskrit.
Oh, it is pumlinga, madam?
Strilinga.
Strilinga, muktika.
Mrittika.
Strilinga.
Strilinga.
Okay. Okay. Dhanyavada.
Jnana Prasuna.
Madam, in the case of banana, kadali is ikaran stirred, but phalam is a neutral gender.
Yes.
Now, if we write together kadali phalam, what kind of word?
Napumsakalingam. If you make it a samasa as kadali phalam, tat kadali phalam.
Okay, thank you, madam. Another one, what is the meaning of the word bhashati?
Bhashati, bark. The dog barks. Bhashati.
Okay. Okay, thank you.
अन्य प्रश्नाः सन्ति वा एकः प्रश्नः युष्मद् शब्दस्य संबोधनरूपः किमर्थं नास्ति इति सो दोज़ 8 वर्ड्स द तद् एतद् किम् युष्मद् अस्मद् एतेषां संबोधने प्रयोगः नास्ति ऑल दोज़ व्हाट वी कॉल द पर्सनल प्रोनाउंस व्हिच इज तत् एतत् दैट इज सः सा तत् एषः एषा एतत् किम् एण्ड् युष्मद् अस्मद् एतेषां शब्दानां सम्बोधने प्रयोगः नास्ति देर् इस् नो प्रयोग इन् सम्बोधन अतः रूपं नास्ति वी डु नाट् यूस् देम् इन् सम्बोधन एट् आल् बिकास् यु ऐ मीन् इट् इस् यूस्ड् एज़् एन् इण्डिकेटर् फार् a particular noun, it does not swabhavena, it does not have a sambodhana form. You will not say oh he. I mean you will not address he, you cannot address he. So it's this one.
Madam. Bhavat Bhavat Shabda Napumsakalinga is there.
It is
Bhavan Pumlinga, Bhavati Strilinga.
It is there.
What about
Bhavat Bhavati Bhavanti, but Prayoga is pretty less. So I did not include it here. It is there.
Oh. It is there, but in practice we are not using.
We see this.
Generally.
Yes.
Okay. Okay.
Yes. Ramanujan. अस्तु विल् स्टाप् हियर् रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरसमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो धन्यवादः